एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः अद्य देशस्य विशेषतः तराई भागेषु अन्येषु क्षेत्रेषु च विशेष नियमेन निष्ठया च छठ पर्व समायोज्यते। कार्तिक शुक्ल चतुर्थ्याम् स्नात्वा शुद्धाचरणे स्थित्वा च अद्य षष्ठ्याम् तिथौ सूर्याय अर्घ्य प्रदान पुरस्सरम् षष्ठी पर्वणः आयोजनम् विधीयते। षष्ठ्याम् तिथौ विधीयमानत्वात् षष्ठी छष्टी इति कृत्वा अपभ्रंशतः नेपाल्यां छठ इत्यस्य पर्वणः नाम संजातम् इति अनुमीयते। समाजे पर्वेदम् छठी मैया पूजा नाम्ना च प्रसिद्धमस्ति। अस्य पर्वणः अवसरे जनकपुर वीरगंज सहितानाम् बारा पर्सा रौतहट प्रवृत्ति जनपदानाम् नदी ह्रद पुष्करिणी प्रवृत्ति जलाशयाः नववधुरिव विभूषिताः सन्ति। पौराणिक ग्रन्थस्य महाभारतस्य अनुसारेण द्रौपद्या सहितानाम् पञ्चानाम् पाण्डवानाम् अज्ञातवासस्य अवधौ तस्य गुप्तवासस्य सफलतायै सूर्यदेवः आराधितः आसीत्। तस्मिन् समये पाण्डवाः विराटराजस्य प्रासादे गुप्तवासे आसन् इति उल्लिखितम् वर्तते। लोककथनस्य अनुसारेण तस्मादेव समयात् छठ पर्वणः समायोजनस्य परम्परा प्रारब्धा वर्तते। छठ पर्वणः उपासकाः पूर्वेद्युः पञ्चम्यां तिथौ आदिवसम् निराहारम् स्थित्वा खरना इति शर्करायाः पायसम् खादन्ति। व्रतालवः भगवतः सूर्यस्य प्रसादत्वेन ठकुवा भुसवा प्रभृतीनि मिष्ठान्नानि निर्मान्ति। सायम् नद्यादि जलाशयेषु स्नात्वा अस्तमितम् सूर्यम् अर्घ्य प्रदानेन पूजयन्ति। आरात्रम् भजन कीर्तनादिभिः भगवन्तम् सूर्यम् स्तुवन्ति च। अद्य षष्ठ्याम् तिथौ उपस्य स्वसप्तम्याम् तिथौ उदीयमानाय सूर्याय पुनः अर्घ्य प्रदान पुरस्सरम् पर्वेदम् सम्पन्नम् भवति। अस्मिन् पर्वणि उपस्य सूर्यपूजनेन सन्तान प्राप्तिः सुख समृद्धि लाभः चर्मरोगनाशश्च भवन्तीति धार्मिक विश्वासः समाजे चिराय प्रतिष्ठितो वर्तते। उपलक्ष्यस्मिन् शुभकामना सन्देशम् ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा छठ पर्वणा पारस्परिक सद्भाव सहिष्णुता बन्धुत्वानाम् भावनाम् प्रगाढीकृत्य राष्ट्रिय एकताम् अतिरिक्तम् सबलीकर्तुम् सायम् अवाप्यते इति विश्वासः व्यक्तो वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे छठ पर्व समाजे विद्यमानान् जातीय लैंगिक प्रवृत्तिन् सर्वान् विभेदान् विसंगतिश्च समाप्य न्यायपूर्णस्य समतामूलकस्य सभ्यस्य सुसंस्कृतस्य च समाजस्य निर्माणाय अग्रेसराः भवितुम् अस्मभ्यम् सर्वेभ्यः प्रेरणाम् प्रददातु इति कामना विहितास्ति। विशेषतो नेपालस्य तराई मधेस क्षेत्रे समायोज्यमानम् छठ पर्व सम्प्रति काष्ठमण्डप उपत्यकया सहितेषु पर्वतीयेषु हिमालयेषु च जनपदेषु अपि सूर्यदेवताम् षष्ठी मातरम् च प्रपूज्य समर्च्य च सश्रद्धम् सभक्ति च समायोज्यमानम् अस्तीति राष्ट्रपतिः भण्डारी सन्देशे उल्लिखति। प्रधानमन्त्रिणा सर्वाद्यवाभिधेन प्रदत्ते शुभकामना सन्देशे अनेन पर्वणा नेपाली समाजे सांस्कृतिकैकतायाः भावनामभिवर्धयितुम् साहाय्यम् प्राप्तमस्तीति उल्लिखितम् वर्तते। प्रधानमन्त्रिणा देवाभिधेन सन्देशे छठ पर्व नेपाली समाजे शान्ति सद्भाव पवित्रा तानाम प्रवर्धकस्य धार्मिक सांस्कृतिक पर्वणः रूपेण प्रसिद्धम् अस्तीति उल्लिखितम् आस्ते। विगत समये विशेषतः तराई मधेस क्षेत्रे समायोज्यमानम् पर्वेदम् सम्प्रति नेपालस्य विशिष्ट परिचय सहितस्य सामूहिक सांस्कृतिक पर्वणः रूपेण आराष्टम् विस्तृतम् अस्तीति उल्लिखता प्रधानमन्त्रिणा देवाभिधेन सन्देशे अस्माकम् सांस्कृतिक पर्व संस्काराः समाजस्य अमूल्य विभूषणानि सन्तीति उल्लिखितम् वर्तते। प्रधानमन्त्री देउवा सन्देशे कोविड 19 डेंगू प्रवृत्ति रोगाणाम् संकटस्य विद्यमानतायाः सन्दर्भे जनस्वास्थ्यस्य न्यूनतम मापदण्डम् परिपाल्य अस्य वर्षस्य छठ पर्व हर्षोल्लासपूर्वकम् समायोजयितुम् सर्वान् जनान् अनुरुणाद्धि। नेपाली कांग्रेस दलेन आगामिनो मार्च शीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः प्रदेश सभानाम् च निर्वाचनाय दलस्य नैर्वाचनिक संकल्प पत्रम् घोषणा पत्रम् वा सार्वजनिकृतम् वर्तते। कांग्रेस दलस्य सभापतिः प्रधानमन्त्री च शेरबहादुर देउवा सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालय ह्य आयोजितस्य पत्रकार सम्मेलनस्य माध्यमेन संकल्प पत्रमिदम् घोषणा पत्रम् वा सार्वजनिकम् व्यदधात् आगामिषु पञ्चसु वर्षेषु द्वादश लक्षणी पञ्चाशत् सहस्राणि च नूतनानि वृत्त्युपार्जनानि सक्ष्यन्ते न्यूनतमा वार्षिकी प्रतिशतम् सप्तमी आर्थिक वृद्धिश्च अधिगमिष्यते इति कांग्रेस दलस्य संकल्पपत्रे उल्लिखितम् वर्तते। कांग्रेस दलेन आगामिन्या प्रतिनिधिसभाया पञ्चवर्षीयं कार्यकालं प्रपूर्य राजनीतिक स्थायित्वं संस्थापयितुं पूर्णतः प्रतिबद्धेन भूयते इति संकल्पपत्रे उल्लिखितम् अस्ति। कांग्रेस दलेन केनापि देशेन सह प्रतिरक्षा सैन्य सुरक्षा सहकार्य सम्बद्धा गठबन्धन निर्माण कारिणी वा नेपालस्य नीतिर्नास्ति इति स्पष्टीकृतं वर्तते। कांग्रेस दलेन राष्ट्रहितं राष्ट्रिय स्वार्थस्य संरक्षणं संवर्धनं च राष्ट्रिय सुरक्षां संयुक्त राष्ट्रसंघस्य आधारपत्र पञ्चशीलस्य असंलग्नतायाः अन्तर्राष्ट्रिय विधेः विश्वशान्तेः शास्त्रित्वस्य च मार्गनिर्देशक नीतिं च अनुसृत्य स्वतन्त्रा सन्तुलिता च विदेशनीतिः अवलम्ब्यते इति ज्ञापितमस्ति। नेपाली कांग्रेस दलेन प्रविधेः प्रयोगस्य माध्यमेन विद्यार्थिभ्य शिक्षण सेवा प्रदानार्थम् आगामी पञ्चसु वर्षेषु आराष्टम् प्रतिशतम् अशीत्याम् विद्यालयेषु अन्तर सञ्जाल सेवाम् प्रापयितुम् संकल्प अग्रेसारितो वर्तते। उच्च शिक्षाम् अधीयानेभ्यो विद्यार्थिभ्य सौविध्यपूर्ण वृद्धिधनस्य व्यवस्थया शैक्षिक ऋणम् प्रदास्यते। सप्तसु एव प्रदेशेषु चिकित्सा शास्त्र संकायस्य विभिन्नानाम् विधानम् शिक्षण सञ्चालनत्वेन शिक्षण चिकित्सालयः स्थापयिष्यन्ते। नेपालस्य विश्वविद्यालयेषु न्यूनतोऽपि प्रतिशतं दशभिः वैदेशिक विद्यार्थिनां पञ्जीकरणाय प्रेरणा प्रदास्यते। संस्कृत विश्वविद्यालये पौरस्थ्य दर्शनस्य अध्ययनानुसन्धानयो कृते विशेष व्यवस्था च विधास्यते इति कांग्रेस दलं ज्ञापयति। वैयुताङ्कनयुतो नेपालः सुशासन समुन्नत्योः आधारः इति समाघोषेणा कांग्रेस दलेन सूचना प्रविधिना आर्थिक गतिविधिनाम् प्रवर्धनात्मिका सुशासन स्थापनात्मिका प्रविधौ उपागमनम् विस्तार्य विशेषतो युवोद्यमीनाम् अनुसन्धातृणाम् समग्रतो नैज क्षेत्रस्य च सृजनशीलतायाः प्रवर्धनोपयोग कारिणी च नीति अवलम्बिता वर्तते। नेपाली कांग्रेस दलेन आगामिनो पञ्चकस्य अभ्यन्तरे वर्षत्रयात् न्यूनवय समूहस्य बालबालिकानां व्यतिचत्रि सप्तति वर्षाणां ज्येष्ठ नागरिकाणां च कृते निःशुल्कं स्वास्थ्योपचारस्य व्यवस्था विधास्यते इति ज्ञापितं वर्तते। कांग्रेस दलस्य संकल्पपत्रे विपन्न परिवारैः प्रयुक्तायाः विद्युतः प्रतिमासं 50 किलोवाट आवर परिमाण पर्यन्तं निःशुल्कं प्रदानार्थं प्रतिबद्धता व्यक्तास्ति। कांग्रेस दलेन आगामिनां पञ्चानां वर्षाणाम् अभ्यन्तरे वार्षिक रूपेण 27 लक्षणां वैदेशिक पर्यटकानां प्राप्तिर्लक्ष्यं च अवलम्बितं वर्तते। निर्वाचन आयोगेन 43 जनपदानां कृते प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षस्य मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति इति ज्ञापितं वर्तते। आयोगेन प्रतिनिधिसभायाः पक्षस्य आसन्नैक कोटिः 18 लक्षाणि 98 सहस्राणि च प्रदेशसभानां पक्षस्य 1 कोटिः 17 लक्षाणि 82 सहस्राणि 75 चेत्याहत्य समग्रता कोटिद्वयस्य 37 लक्षाणाम् 80 सहस्राणां 75 च मतपत्राणां मुद्रण कार्यं सम्पन्न पन्नमिति निर्वाचन आयोगस्य सहायक प्रवक्ता सूचनाधिकारी च सूर्यप्रसाद अरियालः अज्ञापयत् इति समाचाराः।